अथ श्रीरमापत्यष्टकम् जगदादिमनादिमजं पुरुषं शरदम्बरतुल्यतनुं वितनं धृतकञ्जरथाङ्गकदम्बिगदं प्रणमामि रमाधिपतिं तमहम् कमलाननकञ्जरतं विरतं हृदि योगिजनैकलितं ललितम् कुजनैः सुजनैरलभं सुलभं प्रणमामि रमाधिपतिं तमहम् मुनिवृन्दहृदिस्थपदं सुपदं निखिलाध्वरभागभुजं सुभुजं ऋतवासवमुख्यमदं विमदं प्रणमादि रमाधिपतिं तमहम् ऋतदानवदृप्तबलं सुबलं स्वजनास्तसमस्तमलं विमलम् समपास्तगजेन्द्रधरं सुधरं प्रणमामि रमाधिपतिं तमहम् परिकल्पितसर्वबलं विकलं सकलागमगीतगुणं विगुणं भवपाशनिराकरणं शरणं प्रणमामि रमाधिपतिं तमहम् मृतिजन्मजराशमनं कमनं शरणागतभीतिहरं दहरं परितुष्टरमारिदयं सुदरं प्रणमामि रमाधिपतिं तमहम् सकलावनिबिम्बधरं स्वधरं परिपूरितसर्वदिशं सुदृशम् गतशोकमशोककरं सुकरं प्रणमामि रमाधिपतिं तमहम् मथितार्णवराजरसं सरसं ग्रहिताखिललोकरिदं सुहृदं प्रतिताद्भुतशक्तिगणं सुगणं प्रणमामि रमाधिपतिं तमहम् सुखराशिकरं भवबन्धहरं परमाष्टकमेतदनन्यमति पठति हतु यो निशमेव नरो लभते खलु विष्णुपदं सपरम् इति श्रीमत्परमहंसस्वामी ब्रह्मानन्दविरचितं श्रीरमापत्यष्टकं सम्पूर्णम्।